What we did in last class before we move on to today's class. Adho Mangala Shloka. Yena Akshara Samam Nayam Adhikam Yamaheshwara Dutsnam Vyakaranam Goktam Asmai Paninaye Namaha Vakyakaram Vararuchim Bhashyakaram Patanjalim Paninim Sutrakaram Cha Ganatosmi Munitrayam Munitrayam Namaskritya Tadukpih Paribhavyata Vayyakarana Siddhanta Kaumudiyam Vivachyate. गतकक्ष्यायाः किञ्चिदेव पुनरावर्तनं कुर्मः. ततः प्राग् अस्माभिः सूत्रं नाम किम् इति अध्येतव्यम् आसीत्. सूत्रस्य लक्षणानि सन्ति: अल्पाक्षरम्, असन्दिग्धं, सारवत्, विश्वतोमुखम्, अस्तोभम्, अनवद्यं च प्रत्यकं सूत्रलक्षणम् इति सूत्रस्य लक्षणानि उक्त्वा, पुनश्च सूत्रेषु प्रभेदाः सन्ति. यथा संज्ञासूत्राणि, परिभाषासूत्राणि, विधिसूत्राणि, नियमसूत्राणि, अधिदेशसूत्राणि, अधिकारसूत्राणि इति षड्विधानि सूत्राणि भवन्ति. तादृशेषु सूत्रेषु आदौ दीक्षिताः सिद्धान्तकौमुद्यां संज्ञासूत्राणि नियोजितवन्तः. यतोहि संज्ञासूत्राणां ज्ञानं विना शास्त्रे, व्याकरणशास्त्रे प्रवेशः एव दुर्लभः, दुःशकः वा. तस्मात् आदौ संज्ञाप्रकरणम् इति कौमुद्याः प्रथमं प्रकरणं, यत्र व्याकरणस्य प्रमुखानि संज्ञासूत्राणि निबद्धानि सन्ति. ततः प्रागपि संज्ञासूत्राणाम् अध्ययनादपि प्राक् अस्माभिः माहेश्वरसूत्राणि अध्येतव्यानि. माहेश्वरसूत्राणि ऐन् इत्यादीनि चतुर्दशसूत्राणि, यत्र संस्कृतस्य वर्णमाला भिन्नक्रमेण निबद्धा अस्ति. तस्य क्रमस्य किं महत्त्वम् इति अग्रे पश्यामः. एवं माहेश्वरसूत्राणि अधीतानि सर्वे जानन्ति इति मन्ये, तथापि एकवारं पठामः. माहेश्वरसूत्राणि अनुवदन्तु: ऐं ऋक् ए ओं ऐ औट् हयवरट् लण् न्यमाणनम् झभै घढघष् जबगडदश् खफछटकौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि. इत्युक्त्वा दीक्षितैः येषाम् अन्त्या इतः इति इत्संज्ञायाः प्रवेशः कारितः. इत् इति काचन संज्ञा, मया व्याकरणे प्रयुक्ता काचन संज्ञा इत् इति संज्ञा. केषाञ्चन वर्णानाम् इत् इति संज्ञा उक्ता पाणिनिना. तत्र एकं सूत्रम् अस्माभिः अधीतं, हलन्त्यम् इति. हलन्त्यम् इति सूत्रेण अन्त्ये, सूत्राणाम् अन्त्ये यः व्यञ्जनवर्णः हल् वर्णः भवति, तस्य इत् इति संज्ञा दत्ता. इत्संज्ञायां प्राप्तायां प्रत्याहारनिर्माणं कृतम्. प्रत्याहारनिर्माणं कथं क्रियते? आदिरन्त्येन सहेत. अत्र मुद्रणे टङ्कणे दोषः अस्ति, क्षम्यताम्. आदिरन्त्येन सहेत इति सूत्रेण प्रत्याहारः क्रियते. कथं क्रियते? अन्त्येन इता सहितः आदिः. कश्चन इत्सम्यकः वर्णः अस्ति, उदाहरणार्थम् ऐ उन् इत्यत्र नकारस्य हलन्त्यम् इति सूत्रेण इत्सम्या लब्धा. इदानीम् अन्त्येन इत्सम्यकेन वर्णेन नकारेण सहितः आदिः, आदिमः वर्णः अकारः, मध्यगानां स्वस्य च संज्ञास्य इत्युक्ते मध्ये यः सन्ति अ इ उल् इत्यत्र अकारणकारयोः मध्ये इकार उकारौ स्तः, इकार उकारयोः तथा अकारस्यापि संज्ञा भवति. तस्मात् अण् इति कश्चन प्रत्याहारः अ इ उ इत्येतेषां वर्णानां ग्राहकः भवति इति आदिरन्तेन सहेत इति सूत्रेण ज्ञातम्। किन्तु अत्र काचन समस्या अस्ति, अयमेव अन्योन्याश्रयदोषः इति अस्माभिः अधीतः गतकक्ष्यायाम्। कीदृशः अन्योन्याश्रयः? हलन्त्यम् इति सूत्रमस्ति, तत्र हल् इति कश्चन प्रत्याहारः उपयुज्यते। हल् इति व्यञ्जनानां हयवरट् इत्यत्र हकारादारभ्य अन्तिमे हल् इति सूत्रस्थ लकारेण सह प्रत्याहारः। हल् इत्युक्ते व्यञ्जनं, तेन अन्त्यं व्यञ्जनम् इत्सम्यकं भवति इति अर्थः लब्धः। हल् इति प्रत्याहारः, प्रत्याहारं कर्तुं किं सूत्रम् आवश्यकं भवति? आदिरन्तेन सहेत इत्येतत् सूत्रम् आवश्यकं भवति। यदि आदिरन्तेन सहेत इति सूत्रं ज्ञायते तदैव हलन्त्यम् इत्यनेन हल् प्रत्याहारं ज्ञात्वा अन्त्यस्य व्यञ्जनस्य इत्सम्यां कर्तुं शक्नुमः। किन्तु आदिरन्तेन सहेत इति सूत्रं ज्ञातुम् आदिरन्तेन सहेत इत्यत्र इता इति इत् इति शब्दः प्रयुक्तः अस्ति, अतः आदिरन्तेन सहेत इति सूत्रं ज्ञातुम् इत् इत्यस्य ज्ञानम् अपेक्षितं भवति। इत् संज्ञायाः ज्ञानं केन सूत्रेण भवति? हलन्त्यम् इति सूत्रेण भवति। एवं हलन्त्यम् इति सूत्रं ज्ञातुम् आदिरन्त्येन सहेत इति सूत्रस्य ज्ञानम् अपेक्षितम्, आदिरन्त्येन सहेत इति सूत्रं पूर्णतया ज्ञातुं हलन्त्यम् इति सूत्रस्य आवश्यकता भवति। एवं च उभयोः अन्योन्याश्रयः अस्ति, स एव दोषः इति अस्माभिः अधीतम्। द इण्टर्डिपेण्डेन्सि बिट्वीन् हलन्त्यम् अण्ड् आदिरन्त्येन सहेत is the problem which Dikshita solves first in the Kaumudi. Why is it interdependent? To know the hal pratyahara, you need to know adirantena saheta, because adirantena saheta is the sutra which is giving us a pratyahara. And to know adirantena saheta, which uses the term it, you need to know halantyam, because that is the sutra which gives you the itsamya. So there is a dependency between the two of them. So that is called anyonyashraya, which is a dosha. So that the problem is, if such is the case, you will not be able to know either of the sutras. And now Dikshita tries to solve it in the Kaumudi. Is there any question? I see something.
Padmaji raised her hand. Let me unmute her. హలో పద్మాజీ,
రామ్ 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 సౌమ్య. ఐ హావ్ నో డౌట్ ఆటోమేటిక్లీ దట్ ఈస్ గోయింగ్ లైక్ దట్.
ఓకే, నో ప్రాబ్లం.
థ్యాంక్ యూ, ధన్యవాదం.
So I think class. दीक्षितैः एतां समस्यां निवारयितुं कर्तिः आश्रिता सूत्रस्य आवृत्तिः। हलन्त्यम् इति सूत्रं द्विः आवर्त्यते, द्विवारं पठ्यते हलन्त्यम् इति सूत्रम्। उभयथापि अर्थभेदः अस्ति, प्रथमावृत्तौ इत्युक्ते प्रथमतः हलन्त्यम् इति सूत्रं पठ्यते, तदर्थः इति माहेश्वराणि सूत्राणि अनादिसंज्ञास्थानि येषाम् अन्त्या इतः लण् सूत्रे अकारश्च हकारादिषु अकारः उच्चारणार्थः इति दीक्षितानां पीठिका। वस्तुतः पाणिनीयं किमपि सूत्रम् इतोपि न निबद्धमस्ति, माहेश्वरसूत्राणि पठित्वा माहेश्वरसूत्राणां विषये किञ्चिदुक्तम्। इदानीं वस्तुतः सूत्रमारभ्यते हलन्त्यम्। हलन्त्यम् इति सिद्धान्तकौमुद्यां प्रथमं सूत्रम्। ये न जानीयुः तेषां कृते किञ्चित् वदामि, पुस्तके मया उक्तं पुस्तकमस्ति चेत् यत् मोतिलाल् द्वारा प्रकाशितं सिद्धान्तकौमुद्याः चतुर्षु भागेषु प्रकाशितम् अस्ति यत् मम समीपे अस्ति। दट् वुड् बि द बुक् ऐ वुड् बि रेफरिङ्ग्, बट् यु आर् फ्री टु हेव् एनी बुक् आफ् कौमुदी वुड् सर्व् यु अबौट् बट् नौ तस्मिन् पुस्तके एनिथिङ्ग् विच् इस् इन् super bold is the sutra. Like the first thing is halantyam, the one is the number of the sutra in the Kaumudi, and then you have the halantyam, which is the sutra. In brackets you have the numbers which are the which is its krama in the Ashtadhyayi. This is the third. 133 is the number assigned to Alankya, which means it is the first adhyaya, third pada, third sutra. The sutra order would be, the first is the chapter number, second is the pada number, and the third number you see will be the sutra. So now this is the first chapter, third pada, third sutra is Halankya. So once you have the sutra, he will also give you the sutra, which is vritti, which is Haliti Sutra Antyam Ityat. This is Dikshita vritti. Okay? In my file, whatever you are seeing on screen, whatever you see in red will be the Mula. If I have to quote from the Siddhanta Kaumudi Mula, I generally try to keep it in red color. So that is what is there in the Mula. Halantyam 133 Haliti Sutra Antyam Ityat. Iti Prathamataha Artha Kriyate. Halantyam iti Ekapadatmakam Sutram. Halantyam iti Samastam Padam Ekameva Padamasti. Hali Antyam Halantyam iti Vigraha. Halantyam iti Padasya. Hali Antyam Halantyam iti Vigraha. Kaha Arthaha Hali Ityukte Hal iti Sutre. Maheshwara Sutreshu. Yadi Smaranti. Etat Puramaiva Vadami, Maheshwara Sutrani Kanthasthani Bhaveyuhu, Tadvina Vyakarane Kimapi Na Chalati. Ayonityarabhya Hal Paryantam Kanthastham Bhavedeva. Idanim Tatra Antimam, Chatuddasham Maheshwara Sutram Bhavati, Hal Iti. Tasmin Sutre, Hal Iti Sutre, Hali Ityukte Hal Iti Sutre, Maheshwara Sutre, Antyam. Antimaha Varnaha, Kaha Lakaraha, It Syat, It Nama, It Samya Prahapahnoti. Hal Iti. Are you able to hear me?
Yes, Samya, it's clear.
Oh, okay. My system gave me an error, so I will check that. So, Hal iti sutre antya nityat. Hal iti maheshwara sutre. Chaturdasham yat maheshwara sutra masti. Tasmin antimaha varnaha lakaraha. It iti samyam prapnoti. Iti sutrartha. What Dikshita does to solve our problem of interdependency is he repeats the Sutra Halantyam. As in the Sutra Halantyam is told twice, as in it is interpreted twice in two different manners. The first interpretation is Halantyam means in the Sutra Hal. Hal is the 14th Maheshwara Sutra. So in that Sutra Hal, the ending Antyam, the last letter which is Lakara, we'll get the samya, we'll get the name called it, is what this sutra tells. This sutra does not give the actual, if people have studied Laghu Siddhanta Kaumudi, you would have noticed that the halantyam, the sutra vritti says, upadeshe antyam hal ityat. There it will tell you that any ending consonant will get it. But for now, that is not the interpretation. What is the interpretation here? It's simple. Hal iti sutre. In the 14th Sutra, Maheshwara Sutra Hal, ending the last letter, the Lakara will get It Samya. The Lakara will be called It by this Sutra, Halantyam. Prathama Vritto, Tavadeva Arthaha. Hal iti Antima Maheshwara Sutra, Lakara It Samya. Idanim Kim Labdham, Lakarasya. Kevalam Lakarasya. Anyesham Vyanjananam Nasti. Yaha Maheshwara Sutreshu. Ekanimesham. Maheshwara Sutreshu Yaha Hal iti Antimaha Varnaha Antimaha Lakaraha Tasya iti Samya Prapta Idani Adirantena Saheta Iti Dithiyam Sutram Pathyate Adirantena Saheta Punaha Tankana Dosha Hasti సమీకరోమినంతరం ఆదిరంకేన సహేత చత్వారి పదాని సంతి అస్మిన్ సూత్రే ఆదిహి అంత్యేన సహ ఇత కహార్థః అంత్యేన ఇత సహితః ఆదిహి మధ్యగానాం స్వస్యక సంన్యాస్య అంత్యేన ఇత ఇత నామ ఇతి శబ్దస్య తృతీయా విభక్తి ఇత ఇతి ఇత్ సమ్యకేన వర్ణేన సహితః ఆదిహి కష్టన ఆదిమః వర్ణః మధ్యగానా మధ్యే ఏ ఏ వర్ణాః ఆగచ్చంతి తేషాం సర్వేషాం స్వస్యత స్వస్య నామ ఆదివర్ణస్యత సమ్యా భవతి ఇత్యుక్తే तत्र माहेश्वरसूत्रेषु अन्तिमः लकारः अन्त्येन लकारेण सहितः आदिः आदिः कः अत्र हकारं स्वीकुर्मः हयवरट् सूत्रस्थं हकारं स्वीकुर्मः अयम् आदिः अयं हकारः आदिः अन्त्ये विद्यमानः लकारः अन्त्यः अन्त्येन इता सहितः आदिः हकारः अन्त्येन लकारेण सहितः हकारः मध्यगानां मध्ये ये ये सन्ति य वर ल यमगणन छपघटत गपघटत खप छठत चटप कप शशस ह इत्येतेषां वर्णानां स्वस्य च स्वस्य नाम आदिवर्णस्य हकारस्य च संज्ञा भवति नौ यु हाव् द प्रत्याहार हल् यु आर् ट्रैङ्ग् यूसिङ्ग् आदिरन्तेन सहेत यु आर् नौ क्रियेटिङ्ग् द प्रत्याहार फाल् हल् वाट् डस् आदिरन्तेन सहेत टेल् एनी itsamya letter, any letter which has the itsamya, any ending letter which has the itsamya, when combined with a beginning letter, any beginning letter, the beginning letter can be anything in the Maheshwara Sutra. So if you join any letter with a itsamya letter, what you get is called a pratyahara. That pratyahara will be an abbreviation for whatever letters fall in between those two letters, is what Adirantyena Saheta tells you. So now, अन्त्येन इता सहितः आदिः आदिः यु टेक् इट् एस् द हकार आफ् हयवरट् इत् इस् यु गाट् फ्रम् हलन्त्यम् नौ यु हव् गाट् इत् संज्ञा फार् द लकार सो नौ कम्बैन् दिस् ह वित् दट् ल एण्ड् नौ यु गेट् अ प्रत्याहार काल्ड् हल् विच् विल् इन्क्लूड् आल् लेटर्स् इन् स्टार्टिङ्ग् फ्रम् य वर ल एट्सेट्रा एण्ड् इट् सेल्फ् विच् इस् ह नौ यु गेट् द मीनिङ्ग् दट् हल् प्रत्याहार मीन्स् all vyanjanas. Idaniyam hal iti pratyaharaha sarvesham vyanjananam grahakaha bhavati. Punaha kim kriyate adirantena saheta iti hal samyayam. Iti hal samyayam praptayam. Idaniyam hal iti pratyaharaha siddha. Siddhe sati kim kriyate naha halantyam iti pathyate. Dvitiyavaram halantyam iti sutram pathyate. Tadeva sutram किन्तु वृत्तिः अर्थः सूत्रार्थः भिद्यते अत्र द्वितीयवारं यदा हलन्त्यम् इति सूत्रं पठ्यते तदा अत्र पदद्वयम् अस्ति हल् इति पृथक् पदम् अन्त्यम् इति पृथक् पदम् अन्त्यम् इति हलः विशेषणम् अन्त्यं हल् अन्तिमः हल् वर्णः उपदेशे इति पूर्वसूत्रात् अनुवृत्तिः भवति अनुवृत्तेः विषये वदामि इदानीम् उपदेशे अन्त्यं हल् इत्स्यात् इत्यनेन उपदेशे सूत्रेषु अन्तिमः यः हल् व्यञ्जनवर्णः तस्य इत्सम्या भवति इति अर्थः प्राप्तः नौ आफ्टर् यु नो द वाट् इस् द हल् प्रत्याहार मीन्स् नौ यु केन् अप्लै दट् हल् प्रत्याहार इन् द सूत्र हलन्त्यम् नौ यु आर् रिपीटिङ्ग् द सूत्र हलन्त्यम् द सेकेण्ड् टैम् इट् इस् अ डिफरेण्ट् इण्टर्प्रिटेशन् द फस्ट् टैम् यु टोल्ड् दट् हलन्त्यम् मीन्स् इन् द माहेश्वर सूत्र हल् the ending letter, that is lakara, will get itsamya. Now you are saying any hal, you are using the pratyahara now, any hal, which is any vyanjana, which is at the end of upadesha, we'll come to what upadesha is, will get itsamya. Now all end letters of all 14 sutras, that is ayvun, nakara gets it by halantyam, ril rikar, kakara gets it by halantyam. So now, by repeating the halantyam, we have sorted the anyonyashraya. Because you see, for the first halantyam now, you do not require the pratyahara. Okay, you do not need adirantyena saheta for halantyam. Because there you are interpreting hal as the Maheshwara Sutra. Hal iti sutre antya vitsya. Idanim halantyam iti prathamavarte, adirantyena saheta iti pratyaharasya jnanasya avashyakata nasti. Halantyam hal iti sutre antya vitsya. पुनः आदि इदानीम् इत्युक्ते किम् इति ज्ञातं ज्ञाते सति आदिरन्त्येन सहेत तेन इत्सम्यकेन लकारेण सहितः हकारः मध्यगानां संज्ञा भवति इति प्रत्याहारः कृतः प्रत्याहारे कृते पुनः हलन्त्यम् इति पठित्वा तत्र प्रत्याहारस्य उपयोगः क्रियते तदानीम् अन्तिमानां व्यञ्जनवर्णानां सर्वेषामपि इत्सम्या लब्ध Our actual purpose is halantyam. Siddhante kaha arthaha, upadeshe antyam hal ityava arthaha. actual meaning of halantim, as in wherever we use it, it would be that the ending consonant will get itsamya, is the meaning. But to get that, to that meaning, to solve a problem, we use the different interpretation for halantim, yeah, and solve the anyonyashraya dosha. Okay. Hope this much is clear. Now we'll see how actually to interpret these sutras. How did we get this, these meanings from these sutras? Okay. So one technique called anuvritti. Anuvritti is a term which is very frequently used in grammar. Siddhanta kaumudyam anuvritti vishaye kimuki nasti, kintu laghu siddhanta kaumudyam varadarajah vadati. Sutreshu adrishtam padam sutrantarat anuvartaniyam sarvatra. Sutreshu adrishtam padam. Paninehe lakshyam kimati alpaksharam. Sutra lakshanam smaramashcheta prathamam lakshanam bhavati alpaksharam. Tadeva padam punah punah uchyate cheta alpaksharatvam na siddhyati. Tasmat kim karoti paninihi ekam padam ekavaram eva vadati agrima sutreshu tameva sutram tameva padam tadeva padam vayam svikurmaha. What Panini does to compress his thing further is, if he needs one thing, say it. It is a term he is defining in about 8 sutras or 7 or 8 sutras. So what he does is, he does not tell it in each and every sutra. In only the first sutra he will tell it. For all the next sutras he says, take the it from the previous sutra. For example, the first sutra in this Itsamya Prakarana is Upadeshe Adhanunasika It, where you have It, you hear It. Next comes Halantyam, you bring in It from the previous sutra. Again, Upadeshe Adhanunasika It, Halantyam, Adiryetudavaha, Shashpratyasya, Chutu, Lashakratathita. There are 6 or 7 different sutras in which he defines Itsamya, but he does not repeat the word It. He says, take it from the previous sutra. This technique of taking a word from the previous sutra is called anuvritti. Sutreshu adrishtam padam. Asmin sutre yat padam na drishyate. Udaharanartham halantyam iti sutre ittiti padam na shruyate. Kim kriyate? Sutrantarat. Hinnata sutrat. Purvasmata sutrat. Anuvartaniyam. Atrapi aniyate. Saeva anuvritti hi ittichyate. Atra halantyam iti sutre. Purvasmata sutrat. Etadhavati. ప్రథమాధ్యాయస్య తృతీయపాదస్య తృతీయం సూత్రం. ప్రథమాధ్యాయస్య తృతీయపాదస్య ద్వితీయం సూత్రం భవతి ఉపదేశే అజనునాసిక ఇత్ ఇది. తస్మాత్ సూత్రాత్ ఉపదేశే ఇది పదం ఇత్ ఇది పదం చ అనువర్తతే. అనువర్తతే ఇత్యుక్తే అనేన సూత్రార్థేన సహ తస్యాపి యోజనం భవతి. వాట్ డు యు మీన్ బై అనువృత్తి? యు బ్రింగ్ ఇన్ పదాస్ ఫ్రమ్ ద ప్రీవియస్ సూత్రాస్ అండ్ జాయిన్ ఇట్ టు మేక్ ద సూత్రార్థ. Now you have, in this sutra you have phal antyam. From the previous sutra you got upadeshe and it. So finally you get upadeshe antyam phal it. Iti sutra saha sampadyate. Esha eva anuvrittihi. Sarvatra sutreshu asmin sutre. Asmadhihi yat sutram adhiyate tasmin sutre yadi kinchana padam na nasti na drishyate. Tarhi purvasmat sutram anuvrittihi iti jnayate. కస్మాత్ సూత్ర కిం పదం అనువర్తనీయం కథం అనువర్తనీయం ఇది సర్వం వ్యాఖ్యాధీనం. యు హావ్ టు డిపెండ్ ఆన్ కమెంటరీస్. ఐ మీన్ సమ్ టైమ్స్ ఇట్ ఇస్ ఆబ్వియస్, సమ్ టైమ్స్ యూ హావ్ టు డిపెండ్ ఆన్ కమెంటరీస్ టు సే హౌ లాంగ్ యూ హావ్ ద అనువృత్తి. ఇఫ్ యూ హ్యావ్ ఇత్, టు హౌ మెనీ సూత్రాస్ డస్ ద ఇత్ అప్లై? దెర్ ఆర్ ఫ్యూ ప్రాబ్లమ్స్ విచ్ ఆర్ సాల్వ్డ్ బై కమెంటరీ, బట్ బేసికలీ ఇట్ ఇస్ అనువృత్తి విచ్ ఇస్ బౌండ్ బై సంథింగ్ కాల్డ్ స్వరిత విచ్ విల్ స్పీక్ ఆఫ్ లేటర్. For now, if you, before you try to interpret the sutra, the first thing you need to know is anuvritti. That is, you have to know what, in addition to the padas which you are hearing in this sutra, what else is coming down from the previous sutras. Only if you know everything that is coming from before, you can interpret the sutra completely. Okay. So, idanim halantyam iti sutre, upadeshe iti padam, ఇత్ ఇది పదం చ అనువర్తతే. ఆహత్య ఉపదేశే అంత్యం హల్ ఇత్ స్యాత్ ఇది సూత్రార్థ. ఉపదేశ నామక అస్మిన్ ఉపదేశ ఇత్యస్తి ఉపదేశ నామక. పశ్యంతు హలంత్యం ఇది సూత్రే उपदेशे अजनुनासिक इत् इति सूत्रात् उपदेशे इति इत् इति च अनुवर्तते. तस्मात् उपदेशे अन्त्यं हल इत् स्यात्. देर्फोर् बिकास् यु आर् ब्रिङ्गिङ्ग् इन् टु वर्ड्स् उपदेशे अण्ड् इत् फ्रम् द प्रीवियस् सूत्र यु गाट् द सूत्रार्थ अस् उपदेशे अन्त्यं हल इत् स्यात्. सो यु गाट् द मीनिङ्ग् आफ् नौ वाट् इस् उपदेश. उपदेशः नाम कः इत्युक्ते उच्यते दीक्षितैः उपदेशः आद्योच्चारणम् उपदिश उपपूर्वकः दिशधातुः. तस्य घञ् प्रत्यये उपदेशः इति पदं सिद्ध्यते. तत्र उप इति आद्यर्थकः, दिशिः उच्चारणार्थकः, दिशधातोः उच्चारणम् इत्यर्थः. उप इति उपसर्गेण सहितः आद्योच्चारणम् इत्यर्थं ददाति. आद्योच्चारणं नाम मुनित्रयस्य पाणिनेः वररुचेः पतञ्जलेः वा एतत् शास्त्र मूलभूतानाम् आचार्याणां यत् आद्यम् उच्चारणम् अस्ति तदेव उपदेशः. आद्यमुच्चारणं नाम आदौ सर्वप्रथमं बोधयितुं यत् उच्चारणं क्रियते तदेव आद्यम् उच्चारणम्. उदाहरणार्थं प्रत्ययाः सन्ति शब्दप्रकरणे आगच्छति राम इत्यस्मात् प्रातिपदिकात् एकविंशतिः प्रत्ययाः क्रियन्ते. स्फोजसमोक्षष्टाभ्यां भ्यः स्नेभ्यां भ्यः लसिभ्यां भ्यः रसोसां नियोः सुतु इति प्रत्ययाः विधीयन्ते. सु औ झस् अम् औ छस् इत्यादयः प्रत्ययकरः. अत्र सर्वत्र इदम् अयम् उपदेशः. किमर्थम् उपदेशः? आद्यम् उच्चारणं पाणिनिः प्रथमवारं सु इत्युक्ते किम् इति बोधयितुमेव इदं सूत्रम् आरभते. तस्मात् इदम् आद्यम् उच्चारणं. तत्र अन्त्यस्य अन्त्ये हल् भवति चेत् अम् औट् इत्यस्ति. तत्र ककारस्य इत्संज्ञा भवति. उपदेशः नाम आद्योच्चारणम्. यदा पाणिना आदौ उच्चार्यते तत्र उपदेशे अन्त्यं हल इत्स्यात्. किमर्थम् उपदेशे इत्युक्ते उदाहरणार्थम् इदमस्खमुः इति एकं सूत्रमस्ति. इदं शब्दस्य खमु इति आदेशः क्रियते. खमु इति प्रत्ययः क्रियते. खमु खकार मकार उकाराः सन्ति. ख अ मु म आ इति तत् म उ इति क्षम्यतां खमु इति प्रत्ययः. तत्र उकारस्य अन्येन सूत्रेण इत्संज्ञा भवति. अत्र उपदेशे अजनुनासिक इत इत्यस्ति खलु तेन सूत्रेण उकारस्य इत्संज्ञा भवति. खम् इति शिष्यते. उकारस्य लोपे सति खम् इति शिष्यते. इदानीम् अत्र अन्ते हल् अस्ति, हल् वर्णः अस्ति मकारः. तस्य इत्संज्ञा भवति वा इति प्रश्ने नास्ति. उपदेशकाले यदा पाणिनिना उपदिष्टं तदा अन्त्य हल् वर्णः अस्ति चेत् तस्यैव इत्संज्ञा. वाट् इस् उपदेश? उपदेश इस् दट् विच् इस् फस्ट् टोल्ड् आद्य उच्चारण द फस्ट् स्पीच् आर् टेलिङ्ग् आर् फस्ट् एक्स्प्रेशन् इस् काल्ड् उपदेश. फस्ट् एक्स्प्रेशन् आफ् हूम् वै प्रत्यासति वि टेक् आफ् द आचार्य नाट् आफ् एनिबडि एल्स् but whatever panini patanjali or varajuji has told. In that the adyocharana means when panini tries to tell you something for the first time. For example, in the Skauja Samoksha sutra he is giving you the pratyaharas for the first time. He is defining, telling you that these are the pratyahas which you have to apply. So in those whatever he is telling adyocharana, in that upadeshe antyam hal, if there is a consonant at the ending it will get itsamya. Is what the Halantyam Sutra written. So what is the importance of Upadesha in this Sutra? Why should you need to say Upadesha is because, I gave an example called Idamas Thamuhu. For Idam Shabda, you have a Pratyaya called Thamu. Okay. So now Thamu, there is a Ukara at the end, not Hal. Ukara is not a Hal. There is an Ukara at the end, which will get an Itsamya by another Sutra called Upadesha as Anunasikaita, and it gets Lopa. Once you get the itsamya for u and it goes away, you are left with thamu. Now this is hal and it is at the ending. Will this get itsamya if you ask? No. Why? Upadesha, when Panini is giving the form, when he is declaring the pratyaya, he declares it as thamu with an ukara in the end and not hal. Therefore, there the makara will not get itsamya. Wherever initially when Panini tells, say he says, sun pratyaya, there the nakara. Bukti kibhyat san, he says. You will add the san suffix to some dhatus. Now, in san, the nakara is at the end. Upadeshe antyam hal. Any hal consonant, which is at the end of upadesha, it will get itsamya. So, the nakara goes away by itsamya and you are left with sa. That is how you apply halantyam. Now, the Bhashyakara has told you to what all do you take by upadesha. As in, for us, everything that Panini is saying is upadesha. He is telling the sutras, he is telling pratyayas, everything. So, where all do you apply itsamya? Is what the Bhashyakara tells you. Dhatu, Pratipadika, Nipata, Pratyahara, Sutra, Pratyaya, Adesha, Agamanam, Antyam. Iyam Pantihi, Balamanarama, Vyakshayam, okay, asti. Dhatu, Pratipadika, Nipata, Pratyahara, Sutra, Pratyaya, Adesha, Agamanam, Antyam, Vyavasita, Antyam, iti Prashya, Uchyate. Etesha, Ante, Dhatoho, Ante, Kashtana, Paranah, Asthite, Dupachashpake, iti Dhatu, Asthi. Dupacha shakaraha antyasti halantyam ityanena tasya itsamya bhavati. Pratipadikam. Pratipadikam kutrachit upadishyate chet tatra pratipadikanam samanyataha upadeshaha nasti. Panini does not usually give a pratipadika. He does not tell, okay, take this is a pratipadika. But if there is a pratipadika upadesha, that the end will get itsamya. Nipata. Nipataha iti santi tatra antyasya itsamya bhavati. Pratyaharaha, Pratyahara Sutrani, Nama Maheshwara Sutreshu, Annityadishu Pratyahareshu cha, Antimavaranasya Halantyam Vityanena Itsamyahavati, Sutreshu, Pratyayeshu, Adesheshu, Agameshu, Eta Sarvatra, Idam Sarvam Upadesha Shabdena Etesham Grahanam Asti, Ataha Etesham Antyasya Varanasya Halantyam Iti Sutrena Itsamyahavati, Iti Bhashyakari Uchyate. किञ्चिदिव पूर्वमेव गच्छामः. इदानीं हलन्त्यम् इति सूत्रम् हलन्त्यम् इति सूत्रं सिद्धान्तकौमुद्याः प्रथमं सूत्रं, किन्तु द्विवारं पठ्यते. प्रथमवारं पठितस्य हल् इति माहेश्वरसूत्रे अन्त्यस्य लकारस्य इत्सम्या भवति इति अर्थः. द्वितीयवारं पठितस्य तु उपदेशे अन्तिमः व्यञ्जनवर्णः इत्सम्यकः भवति इति अर्थः. So hopefully this clears halantyam. Halantyam in the Kaumudi. In Ashtadhyayi, Panini tells it only once. But to solve this problem of Anyonyashraya, it has been repeated by Dikshita. He interprets it twice in two ways. The first time, the hal is not a pratyahara. The hal is taken as the 14th Maheshwara Sutra. And you get, give a lakara, itsamya to lakara. And then make a pratyahara with that lakara. And the second time when you are interpreting halantyam, you interpret it with two words, hal antyam. Anuvritti is again two words, upadeshe and sutra. So joining, you get the sutra as upadeshe antyam hal itsya. It means in any upadesha. For example, to make it clear, if in any dhatu or adesha or pratyaya, the ending consonant will get itsamya. Okay? That is what Halantyam tells. Now by this sutra, all the ending letters of the Maheshwara Sutras and the 14 sutras, the Na, Ka, Nga, Cha, all those get Itsamya. Okay? Hope this much is clear. Now we'll go and see how we Adirantena Saheta. Right? I just gave the meaning of Adirantena Saheta, but how actually are you getting that meaning? Is what today I'm not giving any break for questioning because some people felt that it is not needed. So anytime you have a question, you can just raise your hand or type in the question so I'll answer. Okay, but there will not be any specific question break till the end. At the end I'll give a question break. But before that, in between, anytime you have anybody has any questions, so please raise your hand or type in the question. इदानीम् आदिरन्त्येन सहेत इति सिद्धान्तकौमुद्याः द्वितीयं सूत्रम् अष्टाध्याय्यां प्रथमाध्याये प्रथमपादे एकसप्ततितमं सूत्रम् आदिरन्त्येन सहेत. अत्र चत्वारि पदानि सन्ति अस्मिन् सूत्रे. आदिः अन्त्येन सह इता. इति चत्वारि पदानि. ओके, जस्ट् द क्वेश्चन्. Priyavrat is asking, Priya is asking a question. He asks, is the last move for halantyam also an it? Tatra upadeshaha ityatra sutreshu api antimaha varnaha itsamyaha bhavati iti uktam. Atha makarasyati itsamya astiva. Halantyam iti sutre makarasya itsamya astiva iti prashnaha. इत्थम्यं भवितुम् अर्हति. यतः हलन्त्यम् इत्यपि उपदेशः, उपदेशे अन्त्यं हलित्स्यात् इत्यनेन उपदेशः भवितुम् अर्हति. किन्तु इत्थम्यायाः किमपि प्रयोजनं स्यात् इति कश्चन नियमः अस्ति. द इत्थम्य इस् आल्वेस् देयर् वित् सम् पर्पस् इन् मैण्ड्. इत्थम्य एस् सून् एस् यु डू इत्थम्य इट् गेट्स् लोक, बट् देर् शुड् बि सम् पर्पस्. द इत् लेटर्, एनी इत्थम्य लेटर् इस् काल्ड् एन् ऐडेण्टिफैयर्. इट् ऐडेण्टिफैस्
Swamiyaji?
Can you hear me, Ravi?
Swamiyaji, we had a break for about 2 minutes.
Oh, okay.
So there was a lot of noise and nobody could hear you.
When could you hear me last?
I think you are trying to explain antyam, if the makara is nitsamya or not. And that's about the time we lost.
So you heard the question?
Yes.
Okay. I'll explain again. This question was, is the makara in halantyam it? Okay. I was telling you that any itsamya will generally have a prayojana. For example, in the Maheshwara Sutra, if you are doing itsamya for the ending letters, there is a prayojana, which is making the pratyahara. Without the itsamya, you couldn't have made the pratyahara, so they will all get an itsamya. Similarly, if you do any letter as it in any dhatu or pratyaya or adesha, there is a purpose. Like if you make kakara as an it in a dhatu, or in a pratyaya, it will belong to a category called kit. All itsamya letters are called identifiers. It will identify the dhatu. It will qualify the dhatu. Say any dhatu, not necessarily a dhatu, a pratyaya or anything. So any pratyaya in which kakara is a kit will be called kit. And there will be a karya which will be depending on that kit. Say guna nishyata. If any pratyaya is kit, Panini says do not do the guna. So always itsamya has to be accompanied with a purpose. Now in halantyam, the makara being it does not serve any purpose at all. So that is one reason where we do not do itsamya. Again, as we go on, we'll see that there are cases where you are debating whether it is it or not. Generally, if there is a purpose, it is called it. Otherwise, it is called ucharanartha. Like we did in Hayavarat, the akara is always ucharanartha. So sometimes Panini adds on letters for Uccharana, so that will not get an Itsamya. Basically, if there is no Prayojana, there is no Itsamya. In Halantyam, so there is no Prayojana which you have to get by making the makara as it, which is not it, it is not considered as it. Could you hear me now? Everybody? Ready?
Yes, this was clear.
Okay. Can we move on? Are there any other questions or raised hands?
No, we can move ahead.
Okay. Adhirantena Saheta. It is Vitiyam Sutram Homodya. And the Chatvari Padani Santi. Adihi Antyena Ita Saha. Saha Ita. Antyena Ita Saha. इति प्रसिद्धमस्ति सहायत्य प्रधाने इति तृतीया विभक्तिः अनित्येन इतः सह आदिः किं भवति इत्येतावदेव सूत्रे अस्ति अनुवृत्तिः किमस्ति स्वं रूपं शब्दस्य अशब्दसंज्ञा इति सूत्रात् स्वम् इति अनुवर्तते तच्च विभक्तिपरिणामेन स्वस्य इति लभ्यते कथमस्य सूत्रस्य अर्थः लभ्यते आदिः इत्यस्ति अन्त्यः इत्यस्ति आदिः नाम कः यस्मात् पूर्वं नास्ति परमस्ति स आदिः यस्मात् परं नास्ति पूर्वमस्ति सः अन्त्यः एनीथिङ्ग् विल् बि काल्ड् आदि बिगिनिङ्ग् ओन्ली इफ् देर् इस् नथिङ्ग् बिफोर् इट् एण्ड् देर् इस् समथिङ्ग् आफ्टर् इट् रैट् इफ् देर् इस् ओन्ली वन् थिङ्ग् यु केनाट् काल् इट् आदि आर् अन्त्य दे आर् रिलेटिव् टर्म्स् इफ् इट् हेस् टु बि काल्ड् एन् आदि देर् शुड् बि नथिङ्ग् बिफोर् इट् एण्ड् देर् शुड् बि समथिङ्ग् आफ्टर् इट् सिमिलर्लि फार् अन्त्य If it is, has to be called an ending, there should be nothing after it and there should be something before it. Now when you have Adi and Antya, it will automatically give you the meaning that there is something in between. Adihi Antyaha, iti padadvayam upayichyate ete, madhya kivapi asti iti jnayate, tadeva akshipyate iti asmadhi. Svayam jnatam bhavati, Adihi Antyaha iti shabdashravane naiva, madhya kivapi asti iti jnanam bhavati. अतः मध्यगानां अन्त्येन इतः सहितः आदिः मध्यगानां संज्ञाप्रकरणे अष्टाध्याय्यामपि प्रसङ्गः संज्ञायः अस्ति तस्मात् संज्ञाप्रकरणे उक्तत्वात् अन्त्येन इतः सहितः आदिः मध्यगानां संज्ञा स्यात् इति सूत्रार्थः लब्धः दट् विल् टेल् यू दट् एनी बिगिनिङ्ग् लेटर् कम्बैनिङ्ग् वित् एन् एण्डिङ्ग् लेटर् विल् बी एन् अब्रिवेशन् फोर् वाट् एवर् फाल्स् इन् बिट्वीन् Now, neither the Adi nor Antya has been included there. It will just still, whatever falls in between can be carried by the subdivision. To get, to include the beginning letter also, there is an anuvritti of the pada svam. Svam rupam, purvasma sutra, svam iti padam anuvartate. Tatya shashtya viparinamyate, tasma svasyata. Svasya adi samyam bhavati. Idaniyam prashnaha, svasya ityanena kasya grahanam. आदेः ग्रहणं वा अन्त्यस्य ग्रहणं वा इति प्रश्नः उत्तरं भवति आदिः इति प्रधानम् ते फार् एक्साम्पल् ऐ गिव् एन् इङ्ग्लिश् एक्साम्पल् विच् विल् मेक् दिस् क्लियर् इफ् यु आर् सेयिङ्ग् से सम्बडि से राम गोस् टु हिस् ओन् होम् स्वस्य इस् हिस् ओन् होम् अलाङ्ग् वित् कृष्ण His own is joining with Rama and not with Krishna. Right? So the same logic you use. Adihi Antyena Saha. Ramaha Krishnena Saha Svasya Griham Gacchati. Means Svasya is Ramasya Griham Gacchataha. Uhavabhi. Natu Krishnasya. Evameva. Adihi Antyena Saha Svasya Samyahavati. Adehe Samyahavati. Iti kyaayate. Tena Antyena Ita Sahitaha Adihi Madhyadanam Svasya Samyasyati. तस्मिन् प्रत्याहारे आदेः अपि ग्रहणमस्ति मध्यस्थानामपि वर्णानां ग्रहणमस्ति अन्त्यवर्णस्य ग्रहणं नास्ति हल् इति उक्ते फयवरट् इति सर्वेषां यवर मध्ये ये वर्णाः सन्ति यकारादयः तेषां सर्वेषां ग्रहणमस्ति स्वस्य हकारस्यापि ग्रहणमस्ति अन्त्यस्य अन्तिमः यः इत्समेकः वर्णः तस्य ग्रहणं नास्ति इति सिद्धान्तः कथं लब्धम् सः युक्ते अप्रधाने सः इति पदं सर्वदा अप्रधाने उपयुज्यते अन्त्येन सः इत्यत्र अन्त्यम् अप्रधानम् आदिरेव प्रधानं स्वस्य च इत्यनेन आदेरेव ग्रहणं are saying adihi antena saha, that adi is that which is pradhana. So the adi with antya will carry or will be an abbreviation for whatever falls in between and also for itself, which is for the adi. So by this sutra you get the meaning that a pratyahara, when you do a pratyahara with an adi varana and an antya varana, you are collecting all varanas which fall in between and also the beginning vekar, not the ending vekar. Okay? Iti adirantena saheta, iti sutrayana vartham. Punah kinchi drasti tatra. Madhyaya varanaha santi, udaharanartham. Hayavarat landla ityadishu. हल् इति प्रत्याहारे कृते लकारस्य ग्रहणं न भवति इति ज्ञातं किन्तु मध्ये हयवरट् इत्यस्ति तस्य तकारस्य ग्रहणं भवति वा न वा इति प्रश्नः शिष्यते तत् अग्रे पश्यामः ऐ थाट् द टापिक् वास् हियर् सो ऐ रेस् द क्वश्चन् द क्वश्चन् इस् इन् हल् अकार्डिङ्ग् टु आदिग्रन्थेन सहेत द हल् द प्रत्याहार हल् विल् केप्चर् वाट् एवर् Varanas are there in between, and also the first letter. It will not take the last letter. So you did not take the L. The L is gone. But then the question is, there are some letters in between, like Hayavarat. In the Pratyahara Hal, you have Hayavara and the Til. Is the Til taken as part of the Pratyahara or not? Is the question. We'll see the answer later. It comes after a few minutes. Now we studied two sutras. Halantyam and Adirantyana Saheta. No, Tataha and Ach Ityadi Samya Siddho. Tataha Ityukte Adirantyana Saheta Iti Sutrena. Punaha Halantyam Iti Sutra Dvayam Upayujya and Ach Ityadi Samya Siddhyanti. Ityukte Sarve Pratyaharaha. And Iti Kashtana Pratyahara. Tatham Halantyam Iti Sutrena. Ayum Iti Sutre Yaha Antyaha Nakaraha Tasya Itsamya. तस्य अन्त्येन इका अकारेण सहितः आदिः अकारः मध्यगानाम् इकार उकारयोः स्वस्य च अकारस्यापि संज्ञा भवति तेन अण् इत्युक्ते अ इ उ एवम् अच् इत्युक्ते अ इ उ लृ ए ओ ऐ ओ इत्यादि संज्ञाः सिद्धाः इदानीं यदि स्मरन्ति दीक्षितैः आदौ मामेश्वरसूत्राणां प्रथमसमये किमुक्तमासीत् इति माहेश्वराणि सूत्राणि अनादिसंज्ञार्थानि इत्युक्ते अण् इत्यादि संज्ञाकरणं प्रत्याहारकरणमेव माहेश्वरसूत्राणां प्रयोजनम् इति उक्तं तच्च इदानीं सिद्धं यु नो हौ टु मेक् अण् सो यु नो वाट् द माहेश्वरसूत्रं वर् यूस्ड् फार् ततः किम् उक्तम् एषाम् अन्त्याः इतः माहेश्वरसूत्रेषु अन्त्यवर्णानाम् इत्संज्ञा भवति केन सूत्रेण इदानीम् अस्माभिः ज्ञातं हलन्त्यम् इति सूत्रेण सर्वेषाम् अन्तिमवर्णानाम् इत्संज्ञा भवति येषाम् अन्त्या इतः लण् सूत्रे अकारश्च इत्यपि उक्तं लण् इति माहेश्वरसूत्रे यः अकारः लकारोत्तर अकारः तस्यापि इत्संज्ञा भवति कथं भवति हलन्त्यम् इति सूत्रेण भवितुं नार्हति यतोहि अकारः नापि हल् नापि अन्त्यः अन्त्ये अपि नास्ति हल् अपि नास्ति अतः हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा न भवति किं करणीयं तर्हि अपरं सूत्रमस्ति इत्संज्ञा इति स्थायतम् उपदेशे अजनुनासिक इति हलन्त्यमित्यस्मात् पूर्वतनं सूत्रमिदं चत्वारि पदानि सन्ति उपदेशे अच् अनुनासिकः अच् कः अर्थः उपदेशे अनुनासिकः अच् इत्संज्ञः स्यात् मीनिङ्ग् इस् वेरि क्लियर् देर् इस् नो अनुवृत्ति कस्यापि पदस्य अनुवृत्तिः नास्ति स्पष्टमस्ति उपदेशे उपदेशः नाम आद्योच्चारणं धातुप्रत्यय इत्यादिषु अनुनासिकः अच् अच् नाम किं प्रत्याहारः अत एव अण् अच् इत्यादि संज्ञाः सिद्धाः अच् इति सकारस्य अयौच् इति सूत्रे यः सकारः तस्य हलन्त्यम् इत्यनेन इत्संज्ञा इत्संज्ञायां सत्याम् अन्त्येन इता चकारेण सहितः आदिः अकारः मध्यगानाम् इ उ लृ ए ओ ऐ औ इत्येतेषां स्वस्य च अकारस्य च संज्ञा भवति अच् इत्युक्ते अ इ उ लृ ए ओ ऐ ओ सर्वे स्वराः इति ज्ञातम् उपदेशे अनुनासिकः स्वरः अनुनासिकः नाम कः इति अग्रे पाणिनिना वक्ष्यते अनुनासिक एस् अ नेसल् टोन् where you use both mukha and nasika, it is called an anunasika. Now, if any ach in any upadesha happens to be an anunasika, then tasya itsamya bhavati, it is uttartha. Upadeshe yatra kutrapi ach swaraha anunasikana asti cheta, tasya itsamya bhavati, it is uttartha. Kintu artha samasya, anunasikaha iti katham nyayate, asmabhi. पाणिनेः काले भाषायामपि उदात्तनुदात्तस्वरितादीनाम् अनुनासिक अननुनासिकादीनां प्रयोगः आसीत्. इन् द टैम्स् वेन् पाणिनि कम्पोस् दिष्टाङ्कै इन् द लाङ्ग्वेज् यु कुड् मेक् औट् द स्वराज् लैक् टुडे इफ् यु नो द वेदर् दर् आर् त्री स्वराज् द वेदास् आर् टोल्ड् अकार्डिङ्ग् टु त्री स्वराज् उदात्त अनुदात्त स्वरितम्. सिमिलर्लि द अनुनासिक अण्ड् अननुनासिक देर् आर् सम् स्वराज् विच् आर् नेचुरलैस्ड् अण्ड् सम् विच् आर् नाट्. आल् दोस् कुड् बि heard in speech when Panini wrote this. But now, in today's speech, classical Sanskrit, you do not hear the swaras nor the anunasikas. Everything is spoken in a single swara and you cannot hear the anunasika on swaras. So how do you know that any swara is anunasika or not? That's a question which we cannot solve today because we do not pronounce the anunasikas today. As people used to pronounce in Panini's pen. So, pratijnana nasikyaha paniniyaha. Paniniyaha, panini shishyaha. Pratijnaya ananasikyam jananti. Pratijnanama shishya paramparayaha. Guru kuhu vadati. Hayam varnaha ananasikahayati. Tekena shishyaha avagachati. Tavadeva. Now, the only means we have of knowing ananasika is by the shishya parampara. If our guru tells us that, okay, in this, in Lund, the akara is anunasika, because it has some prayojana, then we have to accept that it is anunasika. Pratigya means to tell. Pratijanati iti pratigya. So, if we know it only by the Guru Parampara, today, whether any ach is anunasika or not, will be known only through the Guru Parampara. All the Panini shishya, if in the Panini Parampara, whatever swaras they have accepted as Anunasika, we also accept as Anunasika and move on. No questions on why this is, you cannot know whether it is actually pronounced as Anunasika or not. So you just know it from tradition. So this tradition tells you, that is why Dikshitaha, Dikshitanam Pratigya, Lan Sutra Akaraha Anunasikaha. Tena Saha Akaraha Anunasikaha iti Jnayate, Anunasikascheta, Upadeshe, अनुनासिकः अस्य इत्सम्यः स्यात् इति सूत्रेण उपदेशे अजनुनासिक इति सूत्रेण तस्य अकारस्य लकारोत्तर अकारस्य इत्सम्या अस्ति. इत्सम्यायां सत्यां किं प्रयोजनम् इति अपरः प्रश्नः. वाट् इस् नौ यु नो दट् द अकार फालोयिङ्ग् द लकार इन् लण्ड् इस् अनुनासिक बै परम्परा. ट्रेडिशनलि इट् हेस् बीन् हेण्डेड् डौन् दट् दट् अकार इस् अनुनासिक. सो यु टेल् दट् दट् अकार इस् अनुनासिक. If it is an anunasika, it gets itsamya by upadeshaya adanunasika itsam. Now what, why? I already told you that itsamya yaha kivapi prayodhanam siyata. Prayodhanam vina itsamya na kriyate. Kim prayodhanam asya itsamya? Yani, ayyun nityatra nakarasya halantyam nityanena itsamya sutta. Kim prayodhanam asya? Pratyahara karanam eva prayodhanam. Anniti pratyahara sutta ha tadeva prayodhanam. Evam ihati. अकारस्य अकारः अकारस्य इत्सम्यः भवति चेत् किं प्रयोजनं? प्रत्याहारकरणं प्रयोजनं. तेन अकारेण सह आदिरन्तेन सहेत इत्यनेन प्रत्याहारः क्रियते. कः प्रत्याहारः? र इति प्रत्याहारः क्रियते. र इत्येव प्रत्याहारः. लसूत्रस्थ अवर्णेन सह उच्चार्यमाणः रेफः रलयोः संज्ञा. माहेश्वरसूत्रेषु पश्यामः ल अत्र अस्ति. अस्य अकारस्य लकारोत्तर अकारस्य इत्सम्या अस्ति. अन्त्येन इता सहितः अकारेण सहितः आदिः अत्र विद्यमानः रेफः. हयवरट् इत्यत्र यः रेफः तस्य अनेन अकारेण सह प्रत्याहारः क्रियते. प्रत्याहारे कृते के के वर्णाः लभ्यन्ते? अयं रेफः, अयं लकारः, मध्ये टकारः अपि अस्ति. किन्तु टकारस्य किं प्रयोजनम् इति, प्रकारस्य ग्रहणं भवति वा न वा इति अनन्तरं पश्यामः. इदानीं रेफः अस्ति, लकारः अस्ति. तस्मात् र ल इति द्वयोः वर्णयोः कश्चन प्रत्याहारः र इति लण् सूत्रस्थ अवर्णेनतः उच्चार्यमाणः रेफः रलयोः संज्ञा द अकार आफ्टर् ल विच् यु टोल्ड् इस् इत् इस् मेण्ट् फार् डूयिङ्ग् अ प्रत्याहार दट् प्रत्याहार इस् काल्ड् र यु जायिन् द रेफ वित् द अकार यु गेट् र दिस् र इस् अन् अब्रिवियेशन् फार् र एण्ड् ल for repha and lakara. What is the use of this pratyahara is this ra pratyahara is used in a sutra called urandraparaha. Urandraparaha is a sutra which you will find in guna sandhi. If you know guna sandhi, the guna for e will be a ramaishaha you do rameshaha, ganga udakam you do gangodakam, where you have a and o as the guna. But now if you have Krishna Ruthini, you do Krishnardhini, Ar and Al. There you have something called Rapara. This sutra will be used there. For now, I just want you to know that this Raparaha, this Ra is a Pratyahara. A Pratyahara which will take two letters, which is Repha and Lakara. Okay. I think I should stop here. It is almost 9. If there are any questions, fine. But let me also tell you, there is an assignment for today. If you have understood the Pratyahara, I just want you to, in the Bala Manorama Vyakhyana, there is a list of the Pratyahara. If you are using the edition which is the same as mine, in page 11, in the Bala Manorama, that is the first, there are two commentaries in this book. There is one line, the top of which whatever is there in bold is the Kaumudi Moola. Below that, whatever is there is Bala Manorama. And then there is one more horizontal line. Below that, you have the Tattva Bodhi, two commentaries. Now, in the Bala Manorama, the last three lines of Bala Manorama commentary on page 11. Or if you are using some other edition which also has Bala Manorama, there is a pratika called Adirantena Ityadina. A pratika is a reference to the Moola. I mean, they will take some pada from the Moola and reference it and write their commentary. So there you have a list of all pratyaharas which can be used in Vyakarana. There are some 42 or 43 pratyaharas. Chatushchatvarimshat, 44 pratyaharas, starting with an. Ak, ik, uk, eng, ach, ich, et, ait, etc. So just write down these list of pratyaharas and try to find out what are the letters which each pratyahara will cover. Okay. This is just an exercise with pratyaharas. If you have a pratyahara, what are the letters which will be covered under the pratyahara? For example, if it is an, it will be a, e, u. If it is a, it will be a, e, u, r, z. So if you can just do that before the next class, we'll read more. I mean, I plan to do a bit more today. So, but just for today's exercise, just work with those pratyaharas. And I'll tell you, do not take the last letter of the sutra. Say, if I'm saying ach, ai, un, the n you do not consider in the pratyahara. The k you do not consider in the pratyahara. Why, we'll see next week. For now, removing those last letters of the sutra, whatever other letters you can consider. And try to work out the pratyahara. Okay, if you have any questions, you can ask. Over short. Prashna Hasanti?
No raised hand so far, Swami.
Whatever. So, if there are no questions, can we close this class?
Yes.
Next class will be on Wednesday, same time, 8 o'clock. I think you have all registered. Well, now they have made an arrangement so that if you register once, it will automatically send you a reminder for every class. You can join in for the class without having to register earlier. That's it, and close.
Okay, I'm stopping the recording, Sam.
समापयामः पुनः श्लोकं पठित्वा समापयामः
एनाक्षरसमां नायम् अधिगम्य महेश्वर कृत्सं व्याकरणं प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।